एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रतिनिधि सभायाः ह्यस्तनोपवेशे एतद् विक्रमवर्षीयं सशस्त्र प्रहरी बल नेपाल विधेयकम् आधृत्य विचार्यताम् इति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति उपवेशे गृहमन्त्रिणा रमेश लेखकेन प्रस्तावोऽयं प्रस्तुतः आसीत् उपवेशे विधेयकमाधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् गृहमन्त्री लेखकः नेपालस्य शान्ति सुरक्षां सुव्यवस्थां च दृढयित्वा विपदां व्यवस्थापनाय सीम्नां सुरक्षायै अपराध नियन्त्रणाय च प्रहरीणां परिचालन सम्बद्धं विधिं संशोधयितुम् एकीकर्तुं च विधेयकम् आनीतमस्ति इति अगदत् तत्पूर्वं सांसदः प्रहरिणं सशस्त्र प्रहरी बलं च राजनैतिक हस्तक्षेपात् मुक्तं विधातुं विधेय निर्माणं विधेयम् इत्यत्र बलं दत्तवन्तः उपवेशे सांसदः शेरबहादुर पुनः सुदूरपश्चिम प्रदेशस्य कर्णाली प्रदेशस्य च विपन्न वर्गैः नागरिकैः विभिन्नेभ्यः चिकित्सालयेभ्यः प्राप्यमाणात् निःशुल्क सेवा सौविध्यात् वञ्चनस्य अवस्था सृष्टास्तीत्यतः चिकित्सालयेभ्यः प्राप्यमाणायै सेवायै नैरन्तर्य प्रदानाय सर्वकारस्य ध्यानाकर्षणं विहितवान् ध्यानाकर्षणानन्तरं स्वास्थ्य जनसंख्यामन्त्री प्रदीप पौडेलः विगते सर्वकारीयेतर संस्थाभिः विहितायां संविधायाम् अछाम जनपदस्य बैलपाटा चिकित्सालयेन व्यवस्थिततया स्वास्थ्य सेवा सौविध्य प्राप्यमाणस्य अवस्थायां सम्प्रति संविधायाः नवीकरणस्य स्वामित्व हस्तान्तरणस्य च कृते प्रक्रिया संचलन्ती वर्तते इति अभाषत प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदः भ्रष्टाचार न्यूनीकरणस्य कलंक सूच्यां देशस्योद्धारस्य विकास निर्माणस्य मार्ग पूर्वाधारस्य च विषयेषु सर्वकारस्य ध्यानम् आकृष्टवन्तः उपवेशे सांसदः पाथिभरा केवल कारयानस्य विषये विकास व्याजेन विनाशस्य स्थितिः न आनेया इति उक्तवन्तः पत्रकाराणां कृते निर्धारितस्य न्यूनतम पारिश्रमिकस्य क्रियान्वयनाभावस्य विषयः मुख्य समाहोयस्य विषयोऽस्ति इति सम्बद्धजनैः निश्चितं वर्तते न्यूनतम पारिश्रमिक निर्धारण समित्या ह्यः काष्ठमण्डपे आयोजिते अन्तर्क्रिया कार्यक्रमे श्रमजीवी पत्रकाराधिनियमं संशोध्य क्रियान्वयन योग्यो विधातव्यः इत्यत्र सम्बद्धजनः बलं प्रादुः कार्यक्रमे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ श्रमजीवी पत्रकाराणाम् अधिनियमं समय सापेक्षं विधातुं सर्वकारः तत्परोऽस्ति इति प्रतिबद्धतां व्यक्तवान् संचार मन्त्री गुरूङ अधिनियमस्य संशोधनाय दीर्घकालस्य अपेक्षायाः कारणेन तत्कालं समित्या विधीयमानेषु कार्येषु सृष्टं काठिन्यम् अपाकर्तुम् अपि मन्त्रालयः तत्परोऽस्ति अतः एतदर्थम् आवश्यकपूर्वकार्येषु प्रयत्नाय न्यूनतम पारिश्रमिक निर्धारण समितिम् अनुरुणत् अन्तर्क्रियायां राष्ट्रिय सूचना आयोगस्य प्रमुखायुक्तः डा सुरेश आचार्यः संचार सूचना प्रविधि मन्त्रालयस्य सचिवः राधिका अर्यालः सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकार्याध्यक्षः डा महेन्द्र विष्टश्च श्रमजीवी पत्रकार सम्बद्धम् अधिनियमं समयानुकूलतया संशोधयितुम् आवश्यकता अस्ति इति बलं दत्तवन्तः नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दहाल प्रचण्डः निगदति सर्वकारस्य परिवर्तनाय आत्मभिः न प्रवर्तते नेकपा माओवादी केन्द्रेण ह्यस्तनदिवसात् झापा जनपदस्य कचन कबल स्थानात् प्रारब्धस्य जनताया सह माओवादी केन्द्रम् इति समाघोषेण संचालितस्य समस्थलमदेश जागरणाभियानस्य उद्घाटनं विदधानः अध्यक्षः प्रचण्डः माओवादी केन्द्रं सम्प्रति जनसमक्षं गच्छतीति धारणाम् अभिवेनक् अध्यक्षः प्रचण्डः सर्वासां जातीनां भाषाणाञ्च मध्ये स्थितं पारस्परिकं सम्बन्धं दृढयितुम् एकतां स्थापयितुं च जागरणाभियानं प्रारब्धमस्ति इति अवदत् प्रधानमन्त्रिणा केपी शर्मा ओलिना सह एतत् ख्रीष्टवर्षीये युवानुभवदान प्रदान कार्यक्रमे सहभागितायै नेपालं प्राप्तहि भारत भूटान मालदीव्स देशानां एनसीसी समूहस्य युवभि ह्यो मेलवार्ता विहिता अस्ति प्रधानमन्त्रिणा ओलिना सह महाशिवरात्रे पर्वणः नेपाली सेनायाः स्थापनायाः द्वाषष्ट्युत्तर द्विशततमस्य वार्षिकोत्सवस्य अवसरे काष्ठमण्डपे आयोक्ष्यमाणे युवानुभवादान प्रदान कार्यक्रमे सहभागितायै आगतेन समूहेन प्रधानमन्त्री निवासं प्राप्य मेलवार्ता विहितास्ति। मेलने प्रधानमन्त्री ओली युवादान प्रदान कार्यक्रमेण सेनया सह विद्यमानस्य सम्बन्धस्य सुदृढीकरणेन सह एनसीसी समूहाभ्यन्तरे शिल्प संस्कृति परम्पराणाम् आदान प्रदानाय समीचीनावसर सृज्यमानोऽस्तीति उदैरयत्। चतुस्त्रिंशत् सदस्यीय भ्रमण समूह नेपाली सेनाया निमन्त्रणायाम् अस्यैव फाल्गुन मासस्य नवमे दिवसे नेपालं प्राप्तोऽस्ति। परराष्ट्र मन्त्रिणा डाक्टर आरजू राणा इत्यनया सह स्विजरल्याण्ड देशस्य विदेश मन्त्रिणा इग्नाजियो डेनिले जियोभानी क्यासिस इत्यनेन स्विजरल्याण्ड देशस्य जेनेभा नगरे मेलवार्ता विहितास्ति। संयुक्त राष्ट्र संघीय मानवाधिकार परिषद अष्टपञ्चाशत्तमे उच्चस्तरीय सत्रे सहभागितायै जेनेभा नगरे विद्यमानाया डाक्टर राणा विधायः स्विजरल्याण्ड देशस्य विदेश मन्त्रिणा सह सम्भूतस्य मेलनस्य अवसरे द्विपक्षीयस्य हितस्य पारस्परिक भिरुचेश्च विषयेषु विमृष्टमिति ज्ञापितम् वर्तते। महाशिवरात्रि पर्वणः अवसरे पाशुपतक्षेत्रे शोभायात्रा विहिता अस्ति। पशुपति क्षेत्र विकास कोषस्य आयोजनायां पशुपतिनाथ मन्दिरस्य पश्चिमद्वारात् आरब्धायाः शोभायात्रायाः शुभारम्भः संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिणा बद्रीप्रसाद पाण्डे विधेन विहितः आसीत्। अत्रान्तरे शिवरात्रि पर्वणः अवसरे पाशुपत क्षेत्रे जायमानं जनसम्मर्दं सुरक्षितं व्यवस्थितं च विधातुं काष्ठमण्डपोपत्यका प्रहरी कार्यालयेन सुरक्षा योजना निर्मिता अस्ति। काष्ठमण्डपोपत्यकायाः यातायात प्रहरी कार्यालयेन पाशुपत क्षेत्रे पूजनार्थं गतानां भक्तानां सहजतया यातायातस्य दर्शनस्य च व्यवस्थापनार्थं सुरक्षा योजना निर्मिता अस्तीति प्रहरी वरिष्ठ परीक्षक विनोद घिमिरे अज्ञापयत्। पाथिभरा केवल कार यान निर्माणस्य निरसनस्य याचनां विदधताम् आन्दोलनरत जनानां समूह सर्वकारेण संघटिताया वार्ता समित्या निर्माण कार्य स्थगन पुरस्सरं वार्तार्थं पुनः आहूतोऽस्ति। सर्वकारीय वार्ता समूहस्य संयोजकेन प्रेम प्रसाद भट्टराय इत्यनेन प्रकाशितायां विज्ञप्तौ कार्य स्थगन पुरस्सरं पुनः वार्ताया कृते आह्वानं विहितमस्ति। इति समाचारः।